ॐ नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः ज्ञानविज्ञानयोगम्। श्रीभगवानुवाच, मय्यासक्तमनः पार्थ योगं युञ्जनमदाश्रयम्, आसंशय्यं समग्रं मां ज्योताज्ञं शचि तत्सृणुं, ज्ञानं तेऽहं सभिज्ञानं ईदं वक्षम्यशेषतां। यज्ञन्त्वानह भूयन्याज् ज्ञन्तव्यम् अवशिष्यते, मनुष्याणं सहस्रेषु कश्चित् जतति सिद्धये, जततमपि सिद्धानां कश्चिन्मङ्गेति तत्त्वतम्। भूमिरापणो वायु खङ्मनो बुधिरेव च, अहङ्कार इतीयं मे भिन्नं प्रकृतिरष्टधाम्। अपरेयमितस्त्वन्नां प्रकृतिं वेदि मे परां, जीवभूतं महाबाहो जोयेदं धर्जते जगत्। एतद्योनिनि भूतानि सर्वाणीन्ति पधारयाम्, अहं कृत्स्नं स जगतां प्रभवं प्रलयस्तथा। मत्तः परतरं नान्नात् किञ्चित् अस्ति धनञ्जय, मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव। रसोऽहं अप्सु कौन्तेयं प्रभास्मिन् शशि सूर्यो, प्रणव सर्ववेदेषु शब्दाखे पौरुषं नृषु, पुण्यो गन्धा पृथिव्यं च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मिन् तपस्विषु, बीजं मं सर्वभूतानां विद्धि पार्थ सनातनं, बुद्धिर्बुद्धिवताङ्गस्मि। तेजस्तेजस्विनामहं बलं बलवतं चाहं, कामरागविभर्जितं धर्माविरुद्धभूतेषु कामोऽस्मिन् भरदर्शभां। जे चैव सात्विका भावा राजसः तामसाश्च, जे मत्त एवेति तन्विद्धि नत्वाहं तेषु ते मयि। त्रिभिर्गुणमयैर्भावै रेभिः सर्वविदं जगत्, मोहितं नाभिजानाति मामेभ्य परमावयं। दैवी हे सा गुणमयी ममो माया दुरत्यया, मामेव जिं प्रपद्यन्ते मायं एतं तरन्ति ते। न मं दुष्कृति नो मूढा प्रपद्यन्ते नराधमा, मायापहृतज्ञानाम् आसुरं भावमाश्रिता। चतुर्विधा भजन्ते मां जनाः सुकृतिरोऽर्जुनम्, अर्थो जिज्ञासुरार्थार्थी ज्ञानिञ्च भरदर्शभां। तेषां ज्ञानी नित्यजुक्ता एकभक्तिर्विशिष्यते, प्रियो हि ज्ञानिनोत्यर्थं आंश च मम प्रियहम्। उदारः सर्व एवैते ज्ञानी त्वत्मैव मे मतम्, अस्तीत स हि युक्तात्मा मामेवानुत्तमङ्गतिम्। बहूनां जन्मनाङ्गन्ते ज्ञानोऽवान्मं प्रपद्यते, वासुदेवः सर्वमिति स महात्मा सुदुर्लभं। कामैस्तते हृतज्ञानां प्रपद्यन्तेऽन्न देवता, तं तं नियममास्तायं प्रकृत्या नियता स्वयां। जो जो जं जं तनुं भक्ता श्रद्धयार्जितुमिच्छति, तश्च तश्चाचलां श्रद्धां तामेव विदधाम्यहं। सतया श्रद्धया युक्तः तश्च राधनमीहते, लभते च ततः कामान् मयैव विहितान् हितान्। अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसां, देवं देव जजोजन्ति मद्भक्ता जन्ति मामपि। अव्यक्तं व्यक्तिमापर्णं मन्नन्ते मामबुद्धयां, परं भावमजानन्तो मम व्ययमनोत्तमं। नाहं प्रकाश सर्वैषां जोगो माया समामृतं, मूढोऽयं नाभिजानाति लोको मामजमं व्ययं। वेदाहं समतीतानि वर्तमानानि चार्जुनं, भविष्याणि च भूतानि मं तु वेद न कश्चन। ईच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारतं, सर्वभूतानि सम्मोहं स సర్గే జంతి పరంతప జేసం తంతగతం పాపం జానానం పుణ్యకరమణాం తే ద్వందో మోహ నిర్ముక్త భజంతే మం దృఢప్రదః జ్వరామరణ మోక్ష్యాయ మామాశ్రీ త్యజతంతి జే తే బ్రహ్మం తద్విదు కృష్ణం అధ్యాత్మం కరమ చాఖిళం సాధీభూతాదిదైవం మాం సాధీయజ్ఞం చ జే విదు ప్రయాణ కాళపి చ మాం తే విదుర్యుక్త చేతసః ఓం తత్సదితి శ్రీమద్భగవద్గీతాసూపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే జ్ఞాన విజ్ఞాన యోగ నామ సప్తమోధ్యాయః ఓం శ్రీకృష్ణార్పణమస్తు శుభం భవతు శుభం భవతు శుభం భవతు.